सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। चित्रा भगिनी, चित्रा भगिनी,
अवशीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। अद्य वयम् एकां कथां पठामः। तस्य नाम अस्ति विचित्रम् आम्रफलम् इति। दृश्यते किल? अस्तु, प्रथमं परिच्छेदं बृन्दावनी भवती पठतु।
कश्चन पूरदेशे स्वर्णसिंह नाम महाराजः आसीत्। महाराजस्य पुत्री काञ्चना एकदा सा चतुर्वादने एव उत्थाय एकाकिनी एव उद्यानम् आगत्य भ्रमणम् आरब्धवती। उद्याने बहवः आम्रवृक्षाः आसन्। तत्र सा भूमौ पतितम् आम्रफलम् अवचित्य गृहं प्रत्यागत्य मातरम् उक्तवती, अम्ब, अहम् एतत् फलं खादामि इति। तदा माता उक्तवती, वत्से, इदानीम् अल्पाहारसमयः, अल्पाहारं समाप्य खाद इति।
समीचीनम्। अस्तु, द्वितीयं परिच्छेदं लक्ष्मी भगिनी।
आं भगिनि, अल्पाहारानन्तरं काञ्चना छुरिकां स्वीकृत्य आम्रफलं छेत्रुम् उज्जाता अभवत्। तदा आम्रम् अवदत्, भो काञ्चने नाहं सामान्यम् आम्रम्। माम् एकस्मिन् पात्रे संस्थाप्य उपरि आवरणेन विच्छाय काष्ठपीठस्य उपरि पात्रं स्थापय। स्थापनानन्तरं यः पात्रम् अनावृच्यमां पश्यति तस्मै अहं तन्नामोल्लिखितं मुक्ताफलं दास्यामि इति। आम्रफलस्य कथनानुसारं काञ्चना तदैव कृतवती।
समीचीनम्। अस्तु, इदानीं प्रथमं परिच्छेदः अस्ति काञ्चनपुरदेशे स्वर्णसिंहः नाम महाराजः आसीत्। अस्तु, प्रिया भगिनी, आङ्ग्लभाषायां अर्थं किम्?
इन् काञ्चनपुरदेशं देर् वास् वन् महाराजा बै नेम् स्वर्णसिंहः।
महाराजस्य पुत्री काञ्चना।
हिस् डाटर्स् नेम् वास् काञ्चना।
समीचीनम्। अनन्तरं इदानीं बृन्दा भगिनी, एकदा सा चतुर्वादने एव उत्थाय एकाकिनी एव उद्यानम् आगत्य भ्रमणम् आरब्धवती। आङ्ग्लभाषायां किम्
One day at 4 o'clock,
she went to the garden alone and was roaming around.
And started roaming around.
Started roaming around the garden. Ekakini is alone, right?
Yes. Asto. Anantaram. Udyane bahavaha amra vrikshaha asan. Chitra Bhagini?
In the garden, there were a lot of mango trees.
Tatra sa bhumo patitam amrapalam avachitya graham pratyagatya mataram uktavati.
There she found a mango which was fallen on the ground. She took it and took it home and told her mother.
Amba aham etat palam khadami iti. Priya Bhagini?
Mom, I want to eat this, I will eat this fruit.
Tada mata uktavati vatse idanim alpahara samayaha. Lakshmi Bhagini?
Mother said, this is the snack time or bhojanam time or lunch time or something. A dinner time, I guess, 4 o'clock. So, it's after that you can eat it. After the bhojanam.
Alpaharam.
Bhagini. Khada. Yeah, alpaharam. After you finish the alpaharam, you can eat that fruit.
Bhagini, I had a question. What is avachitya and what is pratyagatya?
So pratyagatya means came back home.
And avachitya?
Kim Bhagini?
Avachitya?
Avachitya ityukte
to take na
or picked up the amra from the earth. Okay,
yeah, from the ground.
Dhanyavad Bhagini.
Alpaharam samapya khada iti. Prinda Bhagini?
Alpaharam samapya khada. So eat it after you finish your dinner.
I think breakfast.
Alpaharam is snack, na?
Snack. 4 o'clock snack, I think. Maybe, yeah.
Yeah, but it's in the morning.
Chaturvadana.
So, breakfast.
Breakfast. Because they says, Ekada sa chaturvadane eva uthaya. She's waking up.
Oh, got up. Yeah. Okay. Alpaharasya anantaram kanchana churikam svikrutya amrafalam chetum udyata abhavat. So, after the breakfast, Kanchana took a knife and cut the mango herself.
No. Udyata abhavat. What does that mean? Sa udyata abhavat. Kanchana udyata abhavat. Udyata means what?
Alpaharasya anantaram kanchana udyata.
She was ready. So she hasn't cut it yet. Alpaharasya anantaram, after breakfast, Kanchana churikam svikritya, taking the knife, amrapalam chetum udyata abhavat. She got ready to cut the mango.
Chetum means Katma, Bhagini.
So because it's Udyata Abhavat, she got ready to cut the fruit. Right? Okay.
Tada, asto. Tada Amram Avadat. Boho Kanchane Naham Samanyam Amram. Asto. Itikte kim Chitya Bhagini?
Then the mango said, Kanchana, I am not a normal mango.
Ordinary.
I am not an ordinary mango.
Anantaram, Priya Bhagini, Bhavati Varatu.
Maam ekasmin patre samsthapya upari avarane avaranena pidhaya kashta pitasya upari patram sthapaya.
Samichinam.
I didn't understand the whole thing though, Bhagini. Maam ekasmin patre samsthapya upari amrena pidhaya kashta. Yeah, I think that pithaya and kashtapitasya, I don't understand.
Kashtapita, wooden table, na?
Oh, okay. And pithaya?
Pithaya, open.
Okay. Upari bhatat sthapaya. Maam etasmin. Etasmin bhatare sthapaya. After putting... I don't understand, Bhagini.
After putting me in a pan, remove the outer skin and keep it on a wooden table. Is that right?
Kind of. You're close. Yeah. Maam ekasmin patre sanstapya.
Put me in a vessel.
After putting me in a
putting me in a
vessel atwa container.
Upari on top upari. Of that. Avaranena.
Outer skin. Upari avaranena means, avarana means the outer skin, right? Pidhaya must be to remove.
One second, let me just check one thing.
So put the patram on top of the wooden plank.
A wooden table.
Okay. Pitasya. Pitasya means plank, na Bhagini? Chitra Bhagini, na, table is...
Pitam means...
plank. Plank.
Kashtapita means...
Wooden plank.
Wooden plank. Or a stool.
So, remove the peel. That's correct, Chitra Bhagini.
Peel.
Okay.
Kashta peetasi upari patram sthapaya. So, you're going to take the, in the container, you're going to unpeel the mango, then put it into the container.
And keep it on a wooden stool. Or a plank.
Stapananantaram yaha patram anavritya maam pashyati tasmai aham tannamo likitam muktapalam dasyami. So, what
can you scroll it up, Bhagini?
Stapanantaram means after putting there. Yaha patram anavritya maam pashyati tasmai aham
tannamo likitam.
Tannamo likitam means tannamaha ullikitam, that means his name. I will write his name on the Muktapala.
प्रतिमां पश्यति तस्मै तस्मै अहं तन्नाम हिज़ नेम इज़ हूज़ नेम व्हाट डज़ शी मीन
यः इट्स
यः
अनावृत्य मां पश्यति
स्थापनानन्तरं सो आफ्टर् यु पुट् इट् देयर् हूएवर् ओपन् द पात्रम्
एण्ड् सीज़् मी ओके
मां
पश्यति
ऐ विल् गिव् a pearl which has his name on it to him.
Mukta palam means pearl, bhagini. Okay.
So I didn't get it. What does it mean? Tanna mantra?
Mukta palam means
pearl opens and sees me.
His name will be on it, the pearl.
Oh, on the fruit.
On the pearl.
Okay.
On the
On the vessel?
Mukta phalam is the pearl, right?
So,
pearl.
One second. So,
Mukta
phalam. Kanchana will put the container as he, okay, if after she puts the vessel there, whoever comes and opens the container and sees the mango, the mango will give him a pearl, but the pearl, it's not a regular type of pearl. The pearl will have his name on it. Whoever opens the
pearl. So whoever opens and sees. Okay, got it.
Asta amra palasya kathana anusaram kanchana tateiva kritavati. Itukte?
Kanchana did as mango told her.
Katananusaram. Is the Katananusaram means what, Bhagini? The essence of the story?
As told by.
As director. Or as director.
As director.
Yeah, that will be better.
Tadaiva Kratavati. Okay.
Iranim. We'll go through this two paragraphs again. Now we'll identify Kartarpadam, Kriyapadam, Karmapadam, Avyayam and all the Kartiyas. Kanchana Pura Deshe Swarna Simhaha Nama Maharajaha Asi. Atra Kartarpadam Kim. Na Kriyapadam Kim. Tatmate Kriyapadam Kim.
Asi.
Asi. Asi.
कर्तृपदं किं
महाराजः
अस्तु महाराजः वा स्वर्णसिंहः वा
स्वर्णदेशे
स्वर्णसिंहः
महाराजः
Which one?
I don't know.
Swarna Singha Bhagini.
Can be both.
It should be Swarna Simha.
Can be both.
Okay.
Because Maharajaha Asit, Swarna Simha Asit.
Okay. So the both can be.
Both can be.
Anantaram?
काञ्चनपुरदेशे सप्तमी विभक्ति नाम इस् अव्ययं भगिनि
नाम
इति रूपमस्ति नाम
सारि भगिनि ओके सर्
सो देट् इस् प्रथमविभक्ति एकवचनं
ओ ओके
नाम शौचुर्दे नामः नामस् नामस्
नाम इस् पुल्लिङ्ग् भगिनि
नकारान्त
नकारान्त ओके
Kanchanapura-deshe would be the Saptamaya Vibhakti, Bhagini? Saptamaya Vibhakti, right? Okay.
That's it. Ashto. अस्तु अनन्तरं महाराजस्य पुत्री काञ्चना अत्र क्रियापदं किं
क्रियापदम्
अस्ति अस्ति
महाराजस्य बुद्धिः
षष्ठी विभक्ति पुत्री एण्ड् काञ्चना बोट् वुड् बि कर्तृपदं भगिनि
पुत्री अस्ति काञ्चना अस्ति
अस्तु अनन्तरं एकदा सा चतुर्वादने एव उत्थाय एकाकिनी एव उद्यानम् आगत्य भ्रमणम्
आरब्धवती उत्थाय आगत्य आरब्धवती आल् द थ्री विल् बि क्रिया एकाकिनी विल् बि विशेषण
आम् अस्तु सो हियर् एकदा इट्स् वाट्
अव्ययम्
चतुर्वादने
सप्तमी
क्रिया नो
कर्मपदम्
किं करोति भ्रमणं करोति
द्वितीया विभक्ति कर्मपदम्
अस्तु सो हौम्नि क्रियापदम्स्
आगत्य उत्थाय
अस्तु So there are three kriya padams. How many of them have karma padams?
Udhyanam and Brahma.
Udhyanam and Brahma.
Only two. There's only Brahmanam and Udhyanam. Udhyanam. Udhyanam does not have. अनन्तरं चतुर्वादने वट् विभक्ति
सप्तमी
समीचीनं
कर्तृपदम्
अनन्तरम् उद्याने बहवः आम्रवृक्षाः आसन्
आसन् आसन् विल् बि द क्रिया उद्याने इस् षष्ठी
आम्रवृक्षाः अस्ति कर्तृपदं न पाक्षवृक्षः
आम्रवृक्षः विल् बि कर्तृपदं यस् सोरि
बहवः विशेषणं
बहवः
अव्यय
बहवः विल् बि विशेषणं bahavah amra vakshah, so it will be visheshim. Asana is karma padam.
Asana is karma padam?
No, kriya padam.
Kriya padam.
Oh, kriya padam, sorry, kriya padam.
Kriya padam.
Astu.
Dhyane saptami vibhakti.
Dhyane saptami.
Astu, anantaram tatra.
Chabhumo patitam.
क्रियापदम् उक्तवती कर्तृपदम्
प्रत्यागत्य इस् आल्सो क्रियापदं न भगिनि
Let's start with Udyane Bahavaha Amravukshaha Asan. So what is Vrinda Bhagini, Udyane?
Saptami Vibhakti.
Chitra Bhagini Bahavaha.
Visheshana.
Lakshmi Bhagini Amravukshaha.
Amravukshaha Uddedi Katrupadam. Asan Uddedi Kriyapadam.
Just tell whatever word you
do. Amravukshaha is the Kartrupadam.
And Asan is the Kriyapadam.
Kriyapadam.
Tatra.
Tatra is Avyayam.
Sa. Vrinda Bhagini.
Kartrupadam.
Chitra Bhagini. Bhuma.
Karma Padam. Bhuma will be... अनुष्य
त्रि भूमि ही इति शब्दः सप्तमी
ओ भूमि शब्द ओके सप्तमी पतितम विल बी देन
कता प्रत्ययः
कता प्रत्यय
अस्तु अनन्तरं लक्ष्मी भगिनी आम्रफलम्
आम्रफलम् आम् पत्रुपदम्
न
Karma phalam, amra phalam. So that would be the karma, karma pada?
Asto, what is the kriya padam for that karma padam kriya padami?
Avachitya.
Samichina. Asto, kaha pratyaha?
Laya pratyaya.
Laya pratyaha. Anantaram. Griham, Vrinda Bhagini?
Karma Padam.
Samichinam. Pratyagatya, Chitra Bhagini?
Kartra Pradam.
Lakshmi Bhagini, Mataram.
Pratyagatya is not Kartra Padam, na Bhagini?
It's Kriya Padam, na Bhagini?
For the Karma Padam. Graham is karma padam, no?
Graham is karma padam and pratyagatya is kriya padam.
I thought you said kriya padam, sorry.
It's kriya padam. And
kriya padam.
What pratyaya,
Bhagini? Amra phalam and kriyapadam, both are karma padams, right?
Yes.
Okay. What were you asking?
Lyap pratyaya. It will be lyap pratyaya, no?
अस्तु इदानीं मातरं लक्ष्मी भगिनी
मातरम् उद्भेति कर्मफलमगे कर्मपदमगे
कर्मपदं
कर्मपदं सो त्रि कर्मपदं
क्रिया भगिनी उक्तवती
क्रियापदं
क्रिया
अस्तु इदानीं वृन्दा भगिनी अम्ब
सम्बोधनम्
Chitra Bhagini, Aham?
Kartra.
Etat, Lakshmi Bhagini?
Etat is Avyayam.
Na.
Na?
Na.
Etat Phalam, Visheshanam then. Etat Phalam. Visheshanam.
Khadami. Priya Bhagini?
Kriyapadam.
कर्मफलम् अस्ति वा?
अहम् सारी कर्तृपदम् इस् अहं, कर्मपदम् इस् फलम्.
समीचीनं. बृन्दा भगिनी इति चित्रा भगिनी तदा
that will be avyayam. Then yes.
Mata Lakshmi Bhagini.
Mata would be the kartrupadam.
Uktavati.
Kriya.
Vatse Priya Bhagini.
Sambodhanam.
Idanim.
भगिनि वत्से अर्थं किं भगिनि?
चैल्ड्.
ओ चैल्ड्. ओके ओके, थैंक यू.
इदानीं बृन्दा
भगिनी
अल्पाहारसमयः चित्रा भगिनि.
दिस् विल् बि कर्मपदम्. Khada will be, that will be Kriya, so this will be Kartra Padam, is it?
Oh, this is Kartra Padam, okay.
So, Tada Mata Uttavati is one sentence, so in that, Mata would be the Kartra Padam there, and then here. And
Uttavati is Kriya.
Oh, okay. In the second sentence, Apahar Samayah, also Kartrupadam.
Yes.
Kartrupadam.
It's a really short. Nidaniyam Alpahar Samayah. That's all.
Oh. Bhagini, shouldn't it be Visheshanam Alpahar Samayah? Is like at the snack time, something?
So,
why is it a Kartrupadam?
What else can be the Kartrupadam? There is nothing else.
So in that, Mata is, isn't Mata the Kartrupadam in that sentence?
There is no Mata in that sentence.
Okay, so you take it as a separate sentence.
Yes, because it is a separate sentence. It says, Tada Mata Uktavati Vatsi Idanim Alpahara Samayaha. So
okay.
Idanim Alpahara Samayaha is a different sentence.
Sentence, okay. Thank you.
अनन्तरं अल्पाहारं समाप्य. अस्तु, अल्पाहारं चित्रा भगिनी.
अल्पाहारं विल् बि कर्मपदम्.
अस्तु, अनन्तरं समाप्य किं भवति?
ल्यप्रत्ययः.
अनन्तरं खाद.
खाद क्रियापदं.
एतत् सम्बोधनं भगिनि? खाद
नो, इट् विल् बि क्रिया. नो,
ईट् क्रियापदम्.
Is that a different form? Khadati.
Khadati, no? So khada, to eat.
You have studied this form like 2 weeks ago. Lotlakara.
Oh, right, right. That's what I was thinking. Lotlakara. Okay.
Purushaha kim? Purushaha.
Uttama Purusha Ekvachanam, Bhagini.
अहं खाद.
मध्यमपुरुषः
एकवचनं. समीचीनम्. अनन्तरं अल्पाः अल्पाहारस्य अनन्तरम्. अस्तु, अल्पाहारस्य लक्ष्मी भगिनी
षष्ठी विभक्ते एकवचनं. अपहारस्य
अनन्तरम्
अनन्तरम् उद्भेद कर्मपद सर्वशेषं
अनन्तरं कर्मपदं
कर्मपदं
कर्मपदं किमर्थम्
काञ्चना विल् बि कर्म कर्तृप्रदं काञ्चना विल् बि कर्तृप्रदम् अनन्तरं विल् बि अव्यये
काञ्चना अनन्तरम् अभवत् जीविके मास्टर्
अभवत् इति क्रियापदम् अनन्तरम् अभवत्
न अत्र अनन्तरम् अव्ययम्
अव्ययम् ओके अव्ययं काञ्चना विल् बि कर्तृपद क्रियापदम् कर्तृपदं यत् क्रिया विल् बि स्वीकृत्य
अभवत्
अभवत् ओके
छुरिका वट् इस् इट्
कर्मपदं
छुरिकाम् उद्भेदकं
कर्मपदं या स्वीकृत्य विल् बि क्रिया
आम्रफलं विल् बि कर्मपदं छेतुम् इस् तुमन्
प्रत्ययः उद्यता अभवत्
अभवत् इस् क्रियापदम्
अभवत्
उद्यता विल् बि विशेषणं भगिनि
अनन्तरं तदा आम्रम् अवदत् तदा किं भवति
I'm not able to see the screen, Bhagini.
Yeah, you have to shift to the right.
Okay.
Gani?
Yeah, better. No. Tada.
Yeah.
Tada is avyayam.
Is this better?
No, again, it's gone.
It's good now, yeah.
This is good.
Tada amram. Avadat is kriya. And amram will be the karma padam.
Tada is avyayam.
Tada is avyayam.
Boho kanchani.
Boho kanchani is
sambodhanam.
Sambodhanam. Naham samanyam amram.
Naham samanyam amram.
So naham is
sambodhanam.
समीचीनं
भगिनि द क्रियापदम् इस् इण्डिकेटेड् युर् एस् अस्ति अगेन् न अहं सामान्यम् आम्रम् अस्ति अस्ति
इस् इट् न अहम् इस् द कर्तृपदम् आर् जस्ट् अहम्
अहम्
अहं सो न विल् बिकम् अव्ययं भगिनि ओके
सो मां विल् बि कर्तृपदं
मां वै विल् मां बि कर्तृपदम्
अहं mom with mine
so why will that be the kartrapadam mama is shashti right?
mom is
sorry mom is dvitiya
okay mom is dvitiya vachan
dvitiya vachanam na dvitiya vibhakti
sorry dvitiya vibhakti
एकस्मिन् पात्रे एकस्मिन् विल् बि विशेषणम्
एकस्मिन् विशेषणं
विशेषणं पात्रे संस्थाप्य विल् बि क्रिया संस्थाप्य विल् बि क्रिया पात्रे विल् बि द
Saptami Vibhakti.
Yes, Saptami Vibhakti Samsthapya.
पुत्र संस्थाप्य पात्रे संस्थाप्य पुत्र
पात्रे
सप्तमी पात्रे विल बी सप्तमी विभक्ति
इज देयर अ कर्तृ पदम इन द सेंटेंस बगिनी आई एम नॉट
इंप्लाइड
ओके हां
व्हाट इज इट फिगर इट आउट यू शुड नो दिस आई एम नॉट गोइंग टू हेल्प यू
आम्रफलम
यादम
नो
द सॉरी कांचना
नो
माम एतस्मिन् पात्रे स्थाप्य उपरि आवरणे पिधाय
त्वम्
करेक्ट् सीम्स् लैक् नागेन्द्र मौर्य इवन् दो हिस् ड्रैविङ्ग् नोस् बेटर्
वेरि गुड् महोदय
त्वं
यु डु दिस् ओके
सो वाट् विल् बि माम् हियर्
माम् विल् बि कर्मपदम्
संस्थाप्य विल् बि क्रिया नो
नागेन्द्र
महोदय
you oh okay
upari avarnena will be
upari visheshanam avarnena will be tritiya vibhakti
sidhaya will be kriya sidhaya will be kriya kaasha peethasya also will be visheshanam shakti vibhakti kaasha peetha will caste will be visheshana
upari is karma pada
sthapya is kriya
yeah
samichana asto
napna sthapana antaram
karma pada
अहम् कर्तृपदं दास्यामि क्रियापदम् पात्रं कर्मपदम् माम् अगेन् कर्मपदम्
पश्यति
क्रियापदम् तस्मै
भगिनी अनावृत्ति इज आल्सो क्रियापदम्
अनावृत्ति विल् बि क्रिया नो
लेप् प्रत्यय
देन
सो अनावृत्ते पश्यति
पश्यति
एंड दास्यामि
दास्यामि विल् बि क्रिया
एंड देन पात्रं माम एंड मुक्ताफलम्
मुक्ताफलम् मुक्ताफलम्
विल् बि कर्म
कर्मपदम्
कर्मपदम्
तन्नामो लिखितं विल् बि विशेषणम्
इस् दट् विशेषणं भगिनि तन्नामो लिखितं
तन्नामो लिखितं कर्मपदम्
यस् कर्मपदम्
Okay.
Not Visheshana.
Wait, 1 minute. Wait, your question is my aham.
Sapananam.
Actually, yes, Visheshana. Visheshana. Correct.
Visheshana. Tannamulikipa will be Visheshana. Okay.
Sapananam.
Shmai is Chaturthi Bhakti.
Karma Pada. Sapananam. Sapananam. Also, Bhagini?
I think we didn't hear you, Lakshmi Bhagini.
Yes, Sthapananantaram is what? Is that Kriya Pada? Sthapananantaram?
I think that's Avyayam.
Okay, Nantaram, Avyayam.
Bhagini, is that avyayam? Sthapanantaram?
Yeah, I don't know.
She's not there?
Yeah, I can't hear her.
Shriyate Vivayadani?
Haan, Bhagini.
I don't know what happened.
Okay, so sthapanantaram will be what?
So sthapanasya anantaram, that is what it is actually. So sthapanasya anantaram, if you split it into two words, then it will be
sthapanasya
anantaram. So anantaram will be an avyayam, sthapanasya will be shashti.
Shashti, okay. Siti will also, so amrafalasya, so here again shashti vibhakti. अथानुसारं कृतवती विल् बि क्रियापदं काञ्चना विल् बि कर्तृपदं तथैव विल् बि
तथैव
कथानुसारं
दट् इस् कर्मपदम्
दट्स् कर्मपदम् ओके
इस् दट् करेक्ट् भगिनि
ऐ थिंक् वि लास्ट् इट् अगेन् कथानुसारं विल् बि कर्मपदं कथनानुसारं कथनानुसारं कर्मपदं ओके
I think I fixed whatever problem it was. Okay. Asta. Anantaram. So what vibhakti did you say amra phalasya was?
Shashti vibhakti. Shashti vibhakti.
So today we are just doing the first two paragraphs. Are there any questions okay. on the first two paragraphs?
No.
Asta. So I'll ask some questions. Raja Kumaryah Namakim.
Kanchana.
Udyane Brahmana Samaye Sakim Praptavati.
Amrapalam
Kim Avadat.
Aham.
अहं सामान्यम् आम्रं
सामान्यफलं नास्ति
अस्तु काञ्चना आम्रं कुत्र स्थापितवती
पात्रे
काष्ठपीठस्य उपरि स्थापयति
काष्ठपीठस्य उपरि
अत्र एतत् एतस्य विषयः अस्ति ल्यबन्तस्य परिचयः इति परन्तु वयं ल्यबन्तं पठितवन्तः परन्तु अत्र ल्यबन्तशब्दाः बहवः सन्ति तत्र कुत्र कुत्र सन्ति द्वे परिच्छेदे वयं पठितवन्तः किल तत्र कुत्र कुत्र ल्यबन्तस्य प्रयोगः भवति कुत्र अस्ति
प्रत्यागत्य
उत्थाय
अवचित्य
आगत्य
आगत्य
समाप्य अल्पाहारे समाप्य संस्थाप्य संस्थाप्य
पीठाय
अनावृत्य अनावृत्य ऑल्सो भगिनी
अनावृत्य
अस्तु वयं गतवर्षे त्वाप्रत्ययानां विषये अध्ययनं कृतवन्तः. उदाहरणमस्ति गच्छति, गत्वा, पठति, पठित्वा इत्यादयः. अत्र वयं पुनः ल्यप् इति प्रत्ययस्य विषयम् अवगन्तुं प्रयत्नं कुर्मः. तत्र ल्यप् प्रत्ययः कदा आगच्छति, यदि उपसर्गः योजितः अस्ति अथवा भवति तदा त्वाप्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति. एक एव कार्यद्वयं यदा करोति तदा प्रथमं कार्यं यत् क्रियापदं द्योतयति तस्य त्वाप्रत्ययः भवति. तत्र अस्तु उदाहरणं ददामि. इदानीं गच्छति इति अस्ति, तस्य त्वान्तरूपं किं भवति? समीचीनं, गत्वा. इदानीम् आ इति उपसर्गः योजयामः चेत् किं भवति? समीचीनम्. अनन्तरं अनु योगः भूत्वा किं भवति? तस्य ल्यबन्तं किं भवति? तत्र आयोगः गत्वा आगत्य अनुयोगः भूत्वा
अनुभूय
वियोगः क्रीत्वा अस्तु समीचीनम्. अस्तु अस्माकं समयः समाप्तमस्ति. अस्तु वयं शान्तिमन्त्रं नामः बृन्दा भगिनी इति चिन्तयामि.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्.
धन्यवादः भगिनी. नमस्कारः.